So I am now reading out Ganapati Upanishad edited by Swami Tattva Vidananda Saraswati. This is ascribed to Atharva Veda. Om Bhadram Karne Bhisrinuyama Devaha Bhadram Pashe Makshavirya Yatraha Sthirairangai stushtuva gvamsastanubhi vyashema devahitam yadayuhu. Om Swastina Indro Vriddhashravaha Swastina Pusha Vishwavedaha Swastina Starksho Arishtanemi Swastino Brihaspatirdadhatu. Om Shanti Shanti, Shanti, Om. Om Namaste Ganapataye, Tvameva Pratyaksham Tattvamasi, Tvameva Kevalam Kartasi, Tvameva Kevalam Dhartasi, Tvameva Kevalam Hartasi, Tvameva Sarvam Khalvidam Brahmasi, Tvam Sakshadatma Sinityam. Ritam Vachmi, Satyam Vachmi, Avatvam Mam, Avavaktaram, Avashrutaram, Avadataram, Avadhataram, Avanuchanam, Avashishyam, Avapurastat, Avadakshinattat, Avapashchattat, Avuttarattat, Avachurdhvattat, Avadharattat, Sarvatumang Pahi Pahi Samantat. Tvangvang Maya, Tvang Chinmaya, Tvamanandamaya, Tvang Brahma Maya, Tvang Sachidananda Dvitiyosi, Tvang Pratyaksham Brahmasi, Tvam Jnanamayo Vijnanamayosi. Sarvam Jagadidam Tvattu Jayate, Sarvam Jagadidam Tvattastishtati, Sarvam Jagadidam Tvai Layameshyati, Sarvam Jagadidam Tvai Pratyeti, Tvam Bhumirapu Nalo Nilo Nabha, Tvam Chattvari Vak Parimita Padani, Tvam Gunatrayatita, Tvam Avasthatrayatita, Tvam Dehatrayatita, Tvam Kalatrayatita, Tvam Mooladharasthitosi Nityam, Tvam Shaktitrayatmaka, Tvam Yogino Dhyayanti Nityam, Tvam Brahma, Tvam Vishnu, Tvam Rudra, Tvam Indra, Tvam Agni, Tvang Vayu, Tvang Surya, Tvang Chandrama, Tvang Brahma, Bhurbhuva Suva Rom. Om Ganadim Purva Muchariya Varnadin Stadanantaram Anuswara Paratara Ardhendulasitam Tarena Riddham Etattava Manuswarupam. Gakara Purva Rupam, Akaro Madhyama Rupam, Anuswaras Chantya Rupam, Bindurutara Rupam, Nadas Sandhanam, Sagvanghita Sandhihi. Saisha Ganesha Vidya, Ganaka Rishi, Nichrid Gayati Chandaha, Ganapatir Devata, Om Ganganapataye Namaha. Om Ekadantaya Vidmahe Vakratundaya Dhimahi Tanno Danti Prachodayat. Om Ekadantaya Vidmahe Vakratundaya Dhimahi Tanno Danti Prachodayat. Om Ekadantaya Vidmahe Vakratundaya Dhimahi तन्नो दन्ति प्रचोदयात् ओम्। एकदन्तं चतुर्हस्तं पाशमंकुशधारिणं रदं च वरदं हस्तैर्बिभ्राणं मूषकध्वजं रक्तं लंबोदरं शूर्पकर्णकं रक्तवाससं रक्तगन्धानुलिप्ताङ्गं रक्तपुष्पैः सुपूजितं भक्तानुकंपिनं देवं जगत्कारणमच्युतं आविर्भूतं च सृष्ट्यादौ प्रकृते पुरुषात् परम्। एवं ध्यायति यो नित्यं स योगी योगिनां वरः। ॐ नमो व्रातपतये, नमो गणपतये, नमः प्रमथपतये, नमस्तेस्तु लंबोदराय, एकदन्ताय, विघ्ननाशिने, शिवसुताय, वरदमूर्तये नमः। एतदथर्वशीर्षं योधीते स ब्रह्मभूयाय कल्पते, स सर्वविघ्नैर्न बाध्यते, स सर्वत्र सुखमेधते, स पञ्चमः पापेभ्यः प्रमुच्यते, सायमधीयानो दिवसकृतं पापं नाशयति, प्रातरधीयानो रात्रिकृतं पापं नाशयति, सायं प्रातः प्रयुञ्जानो अपापो भवति, सर्वत्राधीयानो अपविघ्नो भवति, धर्मार्थकाममोक्षं च विन्दते। इदमथर्वशीर्षम् अशिष्याय न देयम्, यो यदि मोहाद्दास्यति स पापीयान् भवति, सहस्रावर्तनाद् यं यं काममधीते तं तमनेन साधयेत्। अनेन गणपतिमभिषिञ्चति स वाग्मी भवति, चतुर्थ्यामनश्नन् जपति स विद्यावान् भवति। इत्यथर्वणवाक्यं ब्रह्माद्यावरणं विद्यान्न बिभेति कदाचनेति। यो दूर्वाङ्कुरैर्यजति स वैश्रवणोपमं भवति, यो लाजैर्यजति स यशस्वान् भवति, स मेधावान् भवति, यो मोदकसहस्रेण यजति स वाञ्छितफलमवाप्नोति, यः साज्यसमिद्भिर्यजति स सर्वं लभते, स सर्वं लभते। ॐ अष्टौ ब्राह्मणान् सम्यक् ग्राहयित्वा सूर्यवर्चस्वी भवति, सूर्यग्रहे महानद्यां प्रतिमा सन्निधौ वा जप्त्वा सिद्धमन्त्रो भवति, महाविघ्नात् प्रमुच्यते, महादोषात् प्रमुच्यते, महाप्रत्यवायात् प्रमुच्यते, स सर्वविद्भवति, स सर्वविद्भवति, य एवं वेद इत्युपनिषद्। ॐ शान्ति शान्ति शान्ति। ॐ वक्रतुण्डमहाकाय कोटिसूर्यसमप्रभ, निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। ॐ शान्ति शान्ति शान्तिः। ॐ गं गणपतये नमः। ॐ गं गणपतये नमः। ॐ गं गणपतये नमः। ॐ शान्ति शान्ति शान्तिः। हरिः ॐ तत्सत् ॐ।